इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। अद्य लोकसभा निर्वाचनस्य प्रथम चरणस्य नामांकनाय अन्तिमः दिवसः वर्तते। बिहार राज्ये नामांकनस्य अन्तिमा तिथि गुरुवासरम् अस्ति। अस्मिन् चरणे अप्रैल मासस्य ऊनविंशतिः दिनांके सप्तदश राज्येषु चतुर्षु च केन्द्रशासित प्रदेशेषु द्व्याधिकैकशतं लोकसभासनेषु निर्वाचनं भविष्यति। तमिलनाडु, अरुणाचल प्रदेश, मेघालय, मिजोरम, नागालैंड, सिक्किम, लक्षद्वीप, पुडुचेरी राज्येषु प्रथमचरणस्य एकस्मिन् चरणे मतदानं भविष्यति। नामांकनपत्राणां निरीक्षणम् अस्य मासस्य अष्टविंशति दिनांके भविष्यति। अभ्यर्थित्वं प्रत्यावर्तनाय अन्तिमा तिथि च मार्च मासस्य त्रिंशत् दिनांकं वर्तते। बिहारे नामांकनानां निरीक्षणम् अस्य मासस्य त्रिंशत् दिनांके भविष्यति। अभ्यर्थित्वं प्रत्यावर्तनाय अन्तिमा तिथि आगामि मासस्य द्वितीय दिनांकः अस्ति। बिहारे अस्य चरणस्य मतदानम् अप्रैल मासस्य ऊनविंशति दिनांके भविष्यति। विभिन्नेषु राज्येषु केन्द्रशासित प्रदेशेषु च ऊननवति लोकसभासनानां कृते द्वितीय चरणस्य अधिसूचना गुरुवासरे प्रसारयिष्यते। भाजपेति दलेन आगामि लोकसभा निर्वाचनाय त्रयः अभ्यर्थिनः नामानि घोषिताः। दलेन दौसातः कन्हैयालाल मीणा, राजस्थानस्य करौली ढोलपुर लोकसभासनात् इंदु देवी जाटवः च नाम्नि उद्घोषिता। थुना ओजम, वसंत कुमार सिंहः आंतरिक मणिपुर संसदीय निर्वाचन क्षेत्रात् भाजपा दलस्य प्रत्याशी भविष्यति। ततः पूर्वं ह्यः सिक्किम नगरे विधानसभा निर्वाचनाय नव प्रत्याशिनां द्वितीया सूची दलेन प्रकाशिता आसीत्। विदेशमन्त्री डॉ एस जयशंकरः प्रोदीरितवान् यत् स्वकीय राष्ट्रिय सम्प्रभुतां यथावदेव स्थापयितुं फिलीपीन्स देशस्य प्रयासानां भारतं समर्थनं विदधाति। मनीला नगरे ह्यः फिलीपीन्स देशस्य विदेशमन्त्रिणा एनरिक मेनालो इत्यनेन सह वार्ताहरान् सम्बोधयन् डॉ जयशंकरः सूचितवान् यत् प्रत्येकं देशस्य समीपे तस्य राष्ट्रिय सम्प्रभुतां तद्वदेव स्थापयितुम् अपि च क्रियान्वयनस्य अधिकारो वर्तते। ध्यातव्यं वर्तते यत् विदेशमन्त्रिणः वक्तव्यमिदं दक्षिणीय चीन सागरे चीनदेशेन सह फिलीपीन्स इत्येतस्य सागरीय विवादस्य अनन्तरं प्रकाशे आगतम्। डॉ जयशंकरः सबलं प्रत्यपादयत् यत् भारतं आसियान देशानां केन्द्रीयकरणं, समन्वयनं, ऐक्यभावश्च इत्येतेषां समर्थको वर्तते। विदेशमन्त्री अग्रे उक्तवान् यत् भारतं नियमाधारित शासनस्य कठोरानुपालनात् अस्मिन् क्षेत्रस्य सुदृढ प्रगतौ समृद्धौ च विश्वासं वर्तते। एतस्मिन् प्रकरणे सागरीय संविधानस्य अन्तर्गतं मान्यता प्राप्तस्य सागरीय विधीनां सम्बन्धे संयुक्तराष्ट्रस्य द्व्यशीत्यधिक नवदशतमस्य UMCLOS इत्येतस्य घोषणायाः विशेष महत्वं विद्यते। सम्पूर्णतया सह अस्य नियमस्य पालनं भवेत्। IPL क्रिकेट क्रीडायां ह्यः चेन्नई नगरस्य MA चिदम्बरम क्रीडांगणे चेन्नई सुपर किंग्स दलेन गुजरात टाइटन्स इत्येतं दलं 63 धावनांकैः पराजितम्। तत्रैव अस्मिन् क्रिकेट मालिका स्पर्धायां अद्य सनराइजर्स हैदराबाद मुंबई इंडियंस इत्येतयोः दलयोः मध्ये हैदराबाद नगरस्य राजीव गांधी अन्तर्राष्ट्रिय क्रीडांगणे सायं 7:30 वादने स्पर्धा भविष्यति। इति वार्ताः।